भाषा समुपासकाः श्रोतारः प्रगतिपथे निरन्तरं संवर्धमानेभ्यः संस्कृत भाषा रतेभ्यः प्रियेभ्यः संस्कृत साप्ताहिकीति श्रोत्रीजनेभ्यः कल्याण विषयकं स्वनमनं समर्पयन्त्यहम् निधि तिवारी समेषां श्रोत्री वृन्दानां स्वागतं व्याहरामि। श्रोतारः, विद्या ज्ञानाध्यात्मिक परम्परासु अवधारणानां एकां विस्तृतां श्रृंखलां निष्पादयति। महर्षिणा भर्तृहरिणापि एतस्मिन् क्रमे विद्याभावः भूमौ भारभूतः इति प्रोदीरितः। अस्याः एव विद्यायाः सारगर्भित श्लोकेन एकेन कथयति अस्माकं सहयोगी दिव्यानन्द झाः।
विद्वान् प्रशस्यते लोके, विद्वान् सर्वत्र गौरवम्, विद्यया लभते सर्वं, विद्या सर्वत्र पूज्यते। विद्वान जन की समाज में प्रशंसा होती है, विद्वान को सर्वत्र गौरव मिलता है, विद्या से सब कुछ प्राप्त होता है और विद्या की सर्वत्र पूजा होती है।
श्रोतारः, साम्प्रतं प्रसङ्ग प्रभागं प्रति वयं चलामः।
कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनु कमलायतलोचनलोकपते विजयी भव वेङ्कटशैलपते स चतुर्मुख षण्मुख पञ्चमुख प्रमुखाखिल दैवत मौलिमणे शरणागत वत्सल सारनिधे परिपालय मां वृषशैलपते अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतै भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे अधिवेङ्कटशैलमुदारमते जनताधिमताधिकदानरता परदेवतया गदितान् निगमै कमलादयितान्न परं कलये कलवेणुरवावशगोपवधू शतकोटिवृतात् स्मर कोटिसमात् प्रतिवल्लविकाभिमतात् सुखदात् वसुदेवसुतान्न परं कलये अभिराम गुणाकर दाशरथे जगदेक धनुर्धर धीरमते रघुनायक राम रमेश विभो वरदो भव देव दया जलधे अवनीतनयाकमनीयकरं रजनीकर चारुमुखाम्बुरुहम् रजनीचरराजतमोमिहिरं महनीयमहं रघुराममये सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकाय ममोघशरम् अपहाय रघुद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे।
प्रिय मित्राणि, चराचर जगति प्रतिदिनं नवीनाः प्रसङ्गाः नैकाश्च घटनाः भवन्त्येव। ताः घटनाः वार्ताश्च कथयति अस्माकं सहयोगिनी मुदिता वेतालः।
न्यायमूर्तिः भूषण रामकृष्ण गवई देशस्य मुख्य न्यायाधीश रूपेण पद गोपनीयतायाः शपथं स्वीकृतवान्। राष्ट्रपतिः द्रौपदी मुर्मुः तस्मै शपथ वचनं प्रतिज्ञापितवती। मुख्य न्यायाधीश रूपेण श्री गवई वर्यस्य कार्यकालं 7 मासं यावत् भविष्यति। विदेशमन्त्रिणा डॉक्टर एस जयशंकरेण भारत पाकिस्तानयोः मध्ये संवादाय कस्यापि तृतीय पक्षस्य मध्यस्थता निराकृता। रक्षामन्त्रिणा राजनाथसिंहेन उक्तं यत् पाकिस्तानस्य हस्तयोः परमाणु अस्त्रं सुरक्षितं नास्ति। IAEA इति अन्ताराष्ट्रिय परमाणु ऊर्जाभिकरणेन एतत् स्वस्य निरीक्षणे स्वीकर्तव्यम्। भारतेन अन्ताराष्ट्रिय मुद्राकोषाय उक्तं यत् सः पाकिस्तानाय दीयमानायाः वित्तीय सहायतायाः विषये पुनर्विचारं कुर्यात्। पाकिस्तानाय आर्थिक सहायता प्रदानस्य अर्थः आतंकवादी गतिविधिभ्यः एव धनोपलब्धता वर्तते। पाकिस्तानेन निगडितः सीमसुरक्षाबलस्य सैनिकः पूर्णम कुमार शौ 20 दिवसानन्तरं स्वदेशं प्रत्यागतः। अधिकारिभिः सूचितं यत् देशद्वयस्य मध्ये सद्यस्तन विवाद कारणेन तस्य प्रत्यावर्तने विलम्बो जातः। CBSE इति केन्द्रीय माध्यमिक शिक्षा परिषदा मंगलवासरे दशम कक्षायाः द्वादश कक्षायाः च परीक्षा परिणामः समुद्घोषितः। गतवर्षस्य तुलनायां परीक्षा परिणामे 0.14% अंकानां वृद्धिः द्योतिता। छात्राणाम् अपेक्षया छात्राभिः उत्तम प्रदर्शनं विहितमस्ति। महिलानां क्रिकेट क्रीडायां भारत श्रीलंका दक्षिणाफ्रीका चेति राष्ट्राणां त्रिकोणीया एकदिवसीया श्रृंखला भारतेन विजिता। निर्णायक स्पर्धायां भारतेन श्रीलंका दलं 97 धावनांकैः पराजितम्। भारतीय क्रिकेट क्रीडकः विराट कोहली निकष क्रीडातः संन्यासं स्वीकृतवान्। विराट कोहली निकष क्रीडायां 14 यावत् भारतस्य प्रतिनिधित्वम् अकरोत्। धन्यवादाः।
श्रोतारः, अधुना समागतः ज्ञान विज्ञान प्रभागः, यत्र एतस्मिन् प्रभागे अद्य निधि झा इत्यनया साकम् उपस्थिताः वर्तन्ते स्वनामधन्याः संस्कृतभाषा समाराधकाः, भारतीय भाषा समितेः अध्यक्षाः, पद्मश्री सम्मानेन सम्मानिताः श्री चमुकृष्ण शास्त्री महाभागाः। आयान्तु साम्प्रतम् एनम् संवादम् श्रोष्यामो वयम्।
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे, कृतमेवास्य जानन्ति स वै पण्डित उच्यते। प्रियाः श्रोतारः, नमो नमः। अद्य अस्माभिः समं ज्ञानविज्ञानप्रभागे वेवेद्यन्ते संस्कृतप्रचाराय प्रसाराय समर्पितसर्वस्वाः भारतीयभाषासमितेः अध्यक्षाः पद्मश्री चमुकृष्णशास्त्रीमहाभागाः। महोदयाः, भवतां प्रणति पुरस्सरम् आकाशवाणीपक्षतः स्वागतं व्याचष्टे।
धन्यवादः।
महोदयाः, प्रथमः तावत् प्रश्नः, भारतीयभाषायाः संवर्धने भवतां प्रयासः वर्तते, परं किमर्थं भाषायै एतावान् प्रयासः? सा तु भावनायाः सम्प्रेषणार्थं विद्यते खलु।
भाषा केवलं भावनायाः सम्प्रेषणार्थं न, भावनायाः प्राप्त्यर्थमपि, भावनायाः उत्पत्त्यर्थमपि। भाषा संवादशीला भवति, अपि च मातृभाषा सर्वदा भावनानां विकासे, जगतः परिचये, ज्ञानवर्धने च साधनं भवति, किञ्च समाजस्य राष्ट्रस्य एकतायां जनानां सामरस्ये भाषा साधनं भवति। भारतीयभाषाः सर्वाः अपि भारतस्य प्रत्येकं जनस्य भावनात्मकविकासे, सांस्कृतिकविकासे, राष्ट्रैक्ये, ज्ञानवर्धने, ज्ञानप्राप्तौ, ज्ञानप्रचारे च भारतीयभाषाणां तत्र प्रमुखा भूमिका भवति। विशेषतया भारतीयज्ञानपरम्परायाः संवर्धने, ज्ञाने, भारतीयतायाः ज्ञाने संवर्धने च भारतीयभाषाणां महती भूमिका भवति।
अस्तु महोदय, धन्यवादाः। भारतीयभाषापुस्तकयोजनायाः माध्यमेन पाठ्यपुस्तकानि 22 अनूद्दिश्यन्ते, लेखिष्यन्ते च, अस्य प्रासंगिकता अपि वर्तते, परम् आङ्ग्लानुरागिणां मध्ये भारतीयभाषायां पठितारः उपलभ्यन्ते किम्? यदि उपलभ्यन्ते तर्हि तेभ्यः भारतीयभाषामाध्यमेन को वा लाभः?
2011 जनगणनायाः अनुसारं भारते केवलं 10% जनाः आङ्ग्लभाषां जानन्ति, तर्हि तदनुसारं 90% जनाः आङ्ग्लभाषां न जानन्ति, ते तु भारतीयभाषाः जानन्ति, तर्हि तेषां 90% जनानां निमित्तं भारतीयभाषाभिः एव पाठ्यपुस्तकानि अथवा ज्ञानसामग्री उपलब्धा भवेत्। तदर्थं सर्वासु भारतीयभाषासु अर्थात् विशेषतया अष्टमसूच्याः 22 भाषासु पाठ्यपुस्तकानि अपि च ज्ञानपुस्तकानि अस्माभिः निर्मातव्यानि इति योजना कृता। तस्याः योजनायाः अनुसारम् अपि च गतवर्षे शिक्षामन्त्रालयेन कश्चन ऐतिहासिकनिर्णयः कृतः। सः निर्णयः एवमस्ति यत् भारते यः कोऽपि पाठ्यक्रमः पाठ्यते फौण्डेशन् स्टेज्तः रिसर्च् पर्यन्तं स्कूल् शिक्षायाम् उच्चशिक्षायां च प्रत्येकं स्तरे सर्वस्य पाठ्यमानस्य सर्वस्यापि पाठ्यक्रमस्य पाठ्यसामग्री पाठ्यपुस्तकं सन्दर्भग्रन्थः वा सर्वः अपि तेषां स्थानीयभाषायाम् अर्थात् 22 भाषाभिः डिजिटल् रूपेण उपलब्धानि करणीयानि इति अस्माकं निर्णयः अस्ति शिक्षामन्त्रालयस्य। तस्य क्रियान्वयनाय इदानीं बजेट् अनौन्स्मेण्ट् माध्यमेन भारतीयभाषापुस्तकस्कीम् स्वीकृता अस्ति। एतदनुसारं स्कीम् योजनानुसारं 100,000 पाठ्यपुस्तकानि भारतीयभाषाभिः अग्रिमवर्षत्रये निर्मास्यन्ते।
एवं महोदय, बहु समीचीनम्। अस्मिन्नेव क्रमे अन्तिमोऽयं प्रश्नः, साम्प्रतिकः युगः डिजिटल् युगः वर्तते, अद्यत्वे सर्वस्यापि विषयस्य अनुवादाः उपलभ्यन्ते क्रियन्ते च, अतः संस्कृतस्यापि अनुवादः अन्यासु भाषासु भवन्त्येव। अनेन जनानां रुचिः यदि संस्कृते अस्ति चेदपि ते प्रायशः आङ्ग्लानुवादमेव पठन्ति, अतः अनुवादकार्येण संस्कृतस्य ह्रासः एव खलु? अत्र भवदीया मतिः का?
अनुवादः द्विधा भवति, संस्कृतपुस्तकानाम् इतरभाषाभिः अनुवादः इति एकः विषयः, इतरभाषापुस्तकेषु विद्यमानविषयाणां संस्कृतभाषया अनुवादः इति द्वितीयः भागः। प्रथमभागे यत् संस्कृतपुस्तकानाम् इतरभाषाभिः अनुवादः इति चिन्त्यते चेत् चर्च्यते चेत् सम्भवतः 10% पुस्तकानां संस्कृतपुस्तकानाम् इतरभाषाभिः अनुवादः न जातः स्यात्। इतोऽपि अधिकानां बहूनां 90% अथवा इतोऽपि अधिकानां पुस्तकानाम् इतरभाषाभिः अनुवादः करणीयः अस्ति, सः एकः भागः। इतोऽपि इतरभाषासु विद्यमानपुस्तकानि यानि सन्ति, 100,000 पुस्तकानि सन्ति इतरभाषासु, तासां पुस्तकानां संस्कृतेन अनुवादः येन सर्वं ज्ञानं संस्कृतभाषया अपि आगच्छेयुः छात्रैः लभ्येरन्, अतः सः अपि भागः अत्यन्तं महत्वपूर्णः। एवम् उभयविध अनुवादकार्यम् अस्माभिः चिन्तनीयम्।
अस्तु महोदय, भवन्तः अमूल्यमपि स्वकीयं नैजं समयं कल्पितवन्तः, एतदर्थं धन्यतावचांसि आविष्क्रियते मया। धन्यवादाः।
नमस्ते, धन्यवादः।
यथोक्तं सुभाषितकृता, प्रारब्धम् उत्तमजनाः न परित्यजन्ति, सत्यं खल्वेतत् न हि मध्याधमैः प्रारब्धं कर्म परिसमाप्तिमेष्यति, प्रत्युत कृतदृढसङ्कल्पाः कार्यैकलक्ष्योन्मुखाः भारती भव्य भारत सेवाबद्धाः चमु कृष्णशास्त्रीवर्याः अहरहः भारतीय भाषायाः सेवा तत्पराः वर्तन्ते। अमीभ्यः अहम् अभिनानन्दिमि।
अहो रमणीयः संवादः एषः। प्रियाः बान्धवाः, अशेषे हि भारते संस्कृत भाषामवलम्ब्य के च कार्यक्रमाः प्रचाल्यन्ते तेषां च कार्यक्रमाणां सूचयः प्रकाशयति अस्माकं सहयोगिनी साधना शर्मा। मिलित्वा आयान्तु श्रोष्यामः।
कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालये उपशास्त्री शास्त्री आचार्य कक्षाणां नूतन शैक्षणिक सत्रे प्रवेशाय नामांकनं प्रारब्धम्। केन्द्रीय संस्कृत विश्वविद्यालयेन षष्ठीतः विद्यावारिधि पर्यन्त कक्षाणां छात्राणां कृते IKS ओलिम्पियाड परीक्षा आयोज्यते। पञ्जीकरणं जून मासं यावत् कर्तुं शक्यते। श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालये कर्नाटक संस्कृत विश्वविद्यालये च शिक्षकाणां रिक्तपदेभ्यः आवेदनानि आमन्त्रितानि। कुमार भास्कर वर्मा संस्कृत पुरातन अध्ययन विश्वविद्यालयस्य ज्योतिष विभागेन अनुष्ठीयमाना दश दिवसीय अन्तर्जालीय कार्यशाला, विषयः अस्ति विंशोत्तरि दशा माध्यमेन फल कथनम्। भारतीय दार्शनिक अनुसंधान परिषदः जवाहरलाल नेहरू विश्वविद्यालयस्य च संयुक्त रूपेण आयोजिते आचार्य राम अवतार शर्मणः परमार्थ दर्शन ग्रन्थे व्याख्याने प्रोफेसर राधा वल्लभ त्रिपाठिना प्रोक्तं यत् परमार्थ दर्शनस्य अवतारवाद चिन्तनं डार्विन सिद्धान्तेन प्रभावितम्।
अस्तु तावत् बालाः, भवतां कृतेऽपि प्रभागः समायातः बालवल्लरी भागः। अद्य समुपस्थिता वर्तते अस्मदीया सहयोगिनी सुषमा कुमारी, भवतां मनोदकराय प्रभागाय एतस्मै।
अहो बालाः, स्वागतं भवतां सर्वेषाम् अस्यां बाल मनोवल्लर्याम्। अद्य वयम् एकां कथां श्रावयिष्यामः। कथायाः शीर्षको वर्तते कंटके नैव कंटकम्। आसीत् कश्चित् चञ्चलो नाम व्याधः, पक्षी मृगादीनां ग्रहणेन सह स्वीयां जीविकां निर्वाहयति स्म। एकदा सः वने जालं विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे यदा सः वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्यात् एकः व्याघ्रः बद्धः आसीत्। सः अचिन्तयत् व्याघ्रः मां खादिष्यति, अत एव पलायनं करणीयम्। व्याघ्रः न्यवेदयत् भो मानव, कल्याणं भवतु ते, यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। तदा सः व्याधः व्याघ्रं जालात् बहिः निरसारयत्। व्याघ्रः अवदत् अरे मूर्ख, क्षुधार्ताय किमपि अकार्यं न भवति, सर्वः स्वार्थं समीहते इति।
प्रियाः बान्धवाः, एकं भारतं श्रेष्ठं भारतमिति अनुभागं स्वीकृत्य आगतोऽस्ति दीपकः सौलंकी, यो हि हिन्दी, संस्कृत, गुजराती, बांग्ला, मराठी, तेलुगु भाषासु विभिन्नानि वाक्यानि कथयति। आयान्तु मिलित्वा शृणुमो वयम्।
एक बुरा व्यक्ति कभी अच्छा कवि नहीं हो सकता। हिंदी, न खलाह संति सुकवयः। संस्कृत, खराब मानस क्यारी सारो कवि ना बनी सके। गुजराती, खराब मानुष कखनो भालो कवि होते पारे ना। बांग्ला, वाईट मानुष कदी ही सांगला कवि हो सकत नहीं। मराठी, शेड्डवाडू यप्पटिकी मंची कवि कालेडू। तेलुगु, ऐसा संसार में कुछ भी नहीं है जिसे गुणवान लोग प्राप्त न कर सकें। हिंदी, न किंचिद प्राप्यतमं गुणानाम संसारे। संस्कृत, आ दुनिया में प्रतिभाशाली लोगों माटे कोई पण वस्तु अप्राप्य नथी। गुजराती, ऐ संसारे प्रतिभावान देर जन्य किछुई अप्राप्य नय। बांग्ला, या जगात प्रतिभावान लोकांसाठी काही ही अगम्य नाही। मराठी, ई प्रपंचमलो प्रतिभावंतुलैन व्यक्तुलकु साधिन चलेनिदि येदि लेदु। तेलुगु,
प्रिय मित्राणि, गमनवेलायाः प्रागेव अहं निवेदयामि यत् भवन्तः सर्वे स्वकीयं निजविचारं nsdsanskrit@gmail.com इत्येतस्मिन् अणुसङ्केते प्रेषयन्तु। कृपया आगामिनि रविवासरे अस्मिन्नेव समये पुनरेकदा नवीनम् अंकं समादाय उपस्थिताः भविष्यामो वयम्। तावत्पर्यन्तं नमो नमः, जयतु संस्कृतं, जयतु भारतम्।